येन दोता हिरः पुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। नमस्कारः महोदय।
नमस्कारः भगिनि, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां परिचयः। तत्र पुल्लिङ्गे अपि स्त्रीलिङ्गे वयम् अभ्यासं कृतवन्तः। तत्र अन्यत् करपत्रमपि स्वीकृत्य तत्र पठितवन्तः, किन्तु इदानीं तत्र अग्रे गीतासोपाने एव अग्रे गच्छामः। किन्तु तस्य पूर्वं केवलं तत्र पुनःस्मरणार्थमपि अभ्यासार्थं तत्र एतत् कुर्मः। तत्र इदानीं तत्र वयं प्रायशः तत्र किं भवान् शब्द अपि तत्र मरुत् शब्द अपि तत्र किञ्चित् पठितवन्तः तत्र। किन्तु अस्तु, तत्र मरुत् इति मरुत् अथवा भवत् इति एव स्वीकुर्मः। मधु महोदय नमस्कारः।
नमस्कारः महोदय।
नमस्कारः महोदय। अस्तु तर्हि तत्र उषा भगिनी तत्र तत्र एतत् कुर्मः। तत्र आत्मन् इति पदस्य विभक्तिरूपाणि एकवारं पठति वा?
आम् महोदय। आत्मन् आत्मन्
तत्र स्वरूपमहोदयस्य करपत्रे अस्ति भगिनि।
नकारान्तः आत्मन् शब्दः। आत्मा आत्मानौ आत्मानः, हे आत्मन् हे आत्मानौ हे आत्मानः, आत्मानम् आत्मानौ आत्मनः, आत्मना आत्मभ्याम् आत्मभिः, आत्मने आत्मभ्याम् आत्मभ्यः, आत्मनः आत्मभ्याम् आत्मभ्यः, आत्मनः आत्मनोः आत्मनाम्, आत्मनि आत्मनोः आत्मसु।
समीचीनं भगिनि, धन्यवादः। अस्तु वेदा भगिनी, तत्र किञ्चित् वदति वा? तत्र हलन्तपदानां विभक्ति मध्ये तत्र तृतीया विभक्तितः सप्तमी पर्यन्तं रूपं कीदृशं भवति? उदाहरणार्थं मरुत् इति स्वीकरोतु। तत्र किं किं भवति मरुत् इति तृतीयातः सप्तमी पर्यन्तं केवलम् एकवचने किं किं भवति?
तृतीयवचनं तृतीया एकवचनरूपमस्ति मरुता।
तत्र किं भवति अन्ते?
अन्ते आकारः भवति।
अतः प्रातिपदिकं योगः आकारः, दीर्घ आकारः।
चतुर्थी विभक्ति ते मरुते, तत्र योगः
एकारः, प्रातिपदिकं योगः एकारः।
पञ्चमी विभक्ति मरुतः, षष्ठी अपि मरुतः, मरुतः मरुत् योगः अह,
विसर्गः विसर्गः, तत्र विसर्गः एव आवश्यकम्। समीचीनम्। अपि
विसर्ग एव वा अकारः वा? अकारः
विसर्गः, क्षम्यताम्, अह अह इति सत्यं भगिनि।
सप्तमी विभक्ति मरुति ह्रस्व इकारः,
ह्रस्व इकारः, समीचीनं भगिनि। अतः तत्र एतत् साधारणरूपम् अस्ति, अतः लन्तपदानां तत्र तृतीयातः सप्तमी पर्यन्तम् एकवचने बहु सुलभम् अस्ति। समीचीनं भगिनि। अस्तु इदानीं तत्र मधु महोदय, तत्र तृतीयातः पञ्चमी पर्यन्तं द्विवचने रूपं किं भवति? तत्र मरुत् इति अस्ति चेत् तत्र किं भवति? तत्र धकारः आगच्छति,
मरुद्भ्यां
धकारः आगच्छति महोदय, धकारः मरुद्भ्यां
मरुद्भ्यां
सर्वत्र मरुद्भ्यां मरुद्भ्यां मरुद्भ्याम् इति अस्ति। तृतीयातः पञ्चमी पर्यन्तं द्विवचने केवलम् एकमेव रूपं मरुद्भ्याम् इति। तत्र धकारः किं भवति? धकारः धकारः अस्ति किं? तत्र तवर्गे धकारः तत्र प्रथमः वा द्वितीयः वा तृतीयः वा तवर्गे?
दकारः
न महोदय मरुत् इति त्यजामः केवलं तत्र तवर्गः स्वीकरोतु तवर्गः इति तवर्गः मध्ये के कानि व्यञ्जनानि सन्ति तवर्गे हा इदानीं तत्र त इति प्रथमव्यञ्जनं दकारः तृतीयः हा तृतीयः व्यञ्जनम् अस्ति तवर्गे तत्र किं भवति तत्र यत्र यत्र तत्र परिवर्तनं भवति चेत् तत्र मरुत् अस्ति चेत् तत्र तकारस्य स्थाने धकारः आगच्छति यत्र तत्र भ इति अस्ति अतः तत्र मरुद्भ्याम् इति धकारः तृतीयवर्णः अस्ति तवर्गे इति तादृशमेव तत्र तत्र पश्यतु वणिक् इति अस्ति खलु हा तत्र वणिक् इति प्रथमविभक्तौ अस्ति एकवचने वणिक् किन्तु मध्ये पश्यतु तत्र तृतीयतः पञ्चमीपर्यन्तं तत्र किं भवति वणिग्भ्याम् इति वणिग्भ्यां गकारः गकारः तृतीय व्यञ्जनमस्ति कवर्गे अतः तदस्ति रूपं तावदेव अस्तु अस्तु तर्हि तत्र स्रग्भ्याम् मध्ये अपि तत्र स्रक् इति अस्ति स्रग्भ्याम् इति भवति सरित् अस्ति चेत् सरिद्भ्याम् इति भवति दिक् अस्ति चेत् दिग्भ्याम् इति तत्र तृतीयसदस्यः तस्मिन् वर्गे यः सदस्यः तृतीयः सः तत्र तस्य आदेशः भवति इति वदामः अस्तु समीचीनं महोदय अतः तत्र केवलं तत्र विभक्ति कीदृशं भवति तत्र एकविंशतिरूपाणि सन्ति किन्तु तत्र किञ्चित् किञ्चित् पश्यामश्चेत् तत्र सारल्यं भवति इति तावदेव श्रीप्रिया भगिनी नमस्कारः इदानीमेव दृष्टवान् क्षम्यतां नमस्कारः भगिनी शुभदा भगिनी नमस्कारः अस्तु तर्हि इदानीं तत्र नमस्कारः भगिनी तत्र किञ्चित् अभ्यासं कृत्वा तत्र गीतासोपनं गच्छामः इदानीं तत्र आत्मन् शब्दः उक्तवान् तत्र मरुत् इति न उक्तवान् किन्तु तत्र हा सुहृद् इति धकारान्तं स्वीकुर्मः तत्र अस्तु इदानीं तत्र नरेश् महोदय तत्र सुहृद् इति किन्तु इदानीम् एतत् कुर्मः सः सुहृद् इति वदामः
ते सुहृदः तं सुहृदं तौ सुहृदौ तान् सुहृदः तेन सुहृदा ते ताभ्यां सुहृद्भ्यां तैः
सुहृद्भिः अस्तु महोदय धन्यवादः अस्तु धन्यवादः इदानीं तत्र वंशीसुधा भगिनी अग्रे चतुर्थीतः सप्तमीपर्यन्तम्
आम् महोदय तत्र सुहृद्
सुहृदः
आम् आम् तस्मै सुहृद् सुहृदे ताभ्यां सुहृद्भ्यां तेभ्यः सुहृद्भ्यः तस्मात् सुहृदः ताभ्यां सुहृद्भ्यां तेभ्यः सुहृद्भ्यः तस्य सुहृदः तयोः सुहृदोः तेषां सुहृदां तस्मिन् सुहृदि तयोः सुहृदोः तेषु सुहृत्सु
हा समीचीनं भगिनि धन्यवादः अस्तु इदानीं तत्र श्रीप्रिया भगिनि तत्र इदानीं तत्र हा स्त्रीलिङ्गे कुर्मः इदानीं तत्र स्त्रीलिङ्गे तत्र वाक् इति अस्ति वाच् शब्दस्य हा अतः तत्र सा वाक्
सा वाक् ते वाचौ ताः वाचः तां वाचं ते वाचौ ताः वाचः तया वाचा तया वाचा ताभ्यां वाग्भिः क्षम्यतां वाग्भ्यां ताभिः वाग्भिः तस्यै वाचे ताभ्यां वाग्भ्यां ताभ्यः वाग्भ्यः
हा समीचीनं भगिनि तावत् पर्यन्तं धन्यवादः शुभदा भगिनि इदानीं तत्र पञ्चमीतः सप्तमी पर्यन्तं सा वाक्
अस्तु महोदय एकनिमिष ओके पञ्चमी तस्याः वाचः द्विवचनम् अपि
हा तत्र द्विवचनं बहुवचनं तत्र पञ्चमीतः सप्तमी पर्यन्तं
ओके तस्याः वाचः ताभ्यां वाभ्यां ताभ्यः वाभ्यः पञ्चमी षष्टिविभक्त्यां तस्याः वाचः तयोः वाचोः तासां वाचां सप्तमी विभक्त्यां तस्यां वाचि तस्यां वाचि तयोः वाचोः
तासु वाक्षु तत्र वाक्षु इति तत्र किञ्चित् सन्धिकार्यमस्ति तावदेव समीचीनं भगिनि धन्यवादः अतः तत्र इदानीं तत्र ललिता भगिनी तत्र इदानीं तत्र स्त्रीलिङ्गे एव तत्र जकारान्त इदानीं तत्र स्रक् इति अस्ति तत्र प्रथमतः पर्यन्तं वदति वा
स्रक् स्त्रीलिङ्ग सा स्रग् ते स्रजौ ताः स्रजः तां स्रजं ते स्रजौ ताः स्रजः तृतीया तया स्रजा ताभ्यां स्रग्भ्यां ताभिः स्रग्भिः चतुर्थी स्रज् तस्यै स्रजे ताभ्यां स्रग्भ्यां ताभ्यः स्रग्भ्यः पञ्चमी तस्याः स्रजः ताभ्यां स्रग्भ्यां ताभ्यः स्रग्भ्यः षष्ठी तस्याः स्रग्भ्यां तयोः स्रजोः तासु स्रजां सप्तमी तस्यां स्रजि तयोः स्रजोः तासु स्रक्षु स्रग्षु स्रग्
स्रक्षु
स्रग्
न न तत्र इक्केव इक्सु स्रक्
इक् इक् अस्ति वा स्रक्षु क
स्रक्षु तत्र गकारः यत्र बकारः अस्ति तत्र गकारः आगच्छति बकारः कस्मिन् वर्गे अस्ति बकारः बकारः तत्र कस्मिन् वर्गे अस्ति तत्र यत्र बकारः आगच्छति तत्र एव तत्र तृतीयसदस्य अस्तु तर्हि सर्वे उक्तवन्तः वा इति इदानीं तत्र अथवा कोऽपि न कृतवान् वा अथवा अस्तु तत्र प्रायश एकवारं तत्र उषा भगिनी तत्र दिक् इति दिक् इति करोति वा
आं महोदय अस्तु महोदय शकारान्तः दिश् शब्दः दिक् ओके एषा दिक् एषा दिक् एषा दिग् एते दिशौ एताः दिशः एताम् एतां दिशं एनां दिशं
न एतौ एते 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 दिशौ
न एतां एनां द्वि अस्ति न महोदय प्रथम
ओ अस्तु 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 तत्र किन्तु तत्र
एताम् अपि च एनाम्
अस्तु अस्तु किन्तु एकमेव स्वीकरोतु भगिनि नो चेत् क्लेशः भवति
एते दिशौ एताः दिशः एतया दिशा एताभ्यां दिग्भ्याम् एताभिः दिग्भिः एतस्यै दिशे एताभ्यां दिग्भ्याम् एताभ्यः दिग्भ्यः
हा समीचीनं भगिनि अस्तु इदानीं मधुमहोदय तत्र पञ्चमीतः सप्तमी पर्यन्तं दिक् एव एषा एषा
पञ्चमी एतस्याः दिशः दिशः
दिशः
एतस्याः दिशः एताभ्यां दिश दिग्भ्यां
दिग्भ्यां
एतद्भ्यः दिग्भ्यः
एताभ्यः
दिग्भ्यः एताभ्यः दिग्भ्यः एतस्याः दिशि दिशः दिशः एताभ्यां दिशौ
एतयोः
एतयोः दिश दिशोः एतासां दिशाम्
षष्टि बहुवचने किम् अस्ति
दिशां
किन्तु तस्य पूर्वं
ओ सम्यक् षष्टि तस्य अत्र
एतासां
दिशाम् एतासां दिशाम् एतस्यां दिशि एतयोः दिशोः एतासु दिक्षु
हा समीचीनं महोदय समीचीनम् अस्तु अतः तत्र किञ्चित् अभ्यासः जातः समीचीनम् इदानीम् अग्रे सरामः तत्र गीतासोपाने द्वितीयभागे इदानीम् एकादशपुटं तत्र स्मः इति मन्ये
नमस्कारः महोदय
लक्ष्मी भगिनि नमस्कारः भगिनि स्वागतं तत्र
क्षम्यताम् अत्र इण्टर्नेट् न आसीत् अतः इदानीमेव योजितवती
अस्तु भगिनि अस्तु अत्र अपि तत्र तादृश तत्र तादृशी समस्या अस्ति इति तत्र दिने आसीत् इति श्रुतवान् किन्तु इदानीं सम्यक् अस्ति इति मन्ये अस्तु भगिनि तत्र
महोदय लिङ्क् पुनः एकवारं प्रेषयतु गतवर्गे अहं न डौन्लोड् न कृतवती लिङ्क्
इदानीं तत्र तत्र किञ्चित् तत्र एकनिमिषः भगिनि तत्र अस्तु तत्र अन्य कोऽपि पठन् भवति तस्मिन् समये अहं प्रेषयामि एकनिमिषः
अस्तु
तत्र एकादशपुटे स्मः तत्र किं कुर्मः तत्र वेदा भगिनी आरम्भं करोति वा तत्र अभ्यासः महोदय वदतु
पुटसङ्ख्या का महोदय क्षमताम्
एकादशः
यथोदाहरणम् एकवचनवाक्यं बहुवचनवाक्यत्वेन बहुवचनवाक्यम् एकवचनवाक्यत्वेन वा परिवर्तयत् एकवचनं बहुवचनं दत्तमस्ति अत्र यथा वणिक् विक्रयणं करोति वणिजः विक्रयणं कुर्वन्ति योगी कर्म करोति योगी स्त्रीलिङ्गशब्दमस्ति तत्र
योगी योगिन् योगिन् स्त्रीलिङ्गशब्दः नास्ति खलु भगिनि
योगिन् योगी कर्म करोति अत्र बहुवचनमस्ति योगिनः कर्म योगिनः कर्म करोति योगिनः कर्म कुर्वन्ति
योगिनः कर्म कुर्वन्ति समीचीनं भगिनि, समीचीनं.
पण्डिता समदर्शिनः, तत्र बहुवचनरूपं दत्तमस्ति. पण्डिताः समदर्शिनः, पण्डिताः, पण्डितः, पण्डितः समदर्शिनः वा पण्डितः समदर्शिनः?
अस्तु, तत्र किम् अस्तु पृच्छामः. अस्तु, तत्र अस्तु, तत्र वंशीसुधा भगिनी, तत्र पण्डिताः समदर्शिनः एकवचनरूपं किं?
पण्डितः समदर्शी इति भवति वा?
सत्यं
सत्यं, तत्र समदर्शी यस्य दर्शनं सममस्ति इत्युक्ते तत्र तत्र किं सर्वान् पदार्थान् एकदृष्ट्या ये यः पश्यति सः समदर्शी. तत्र पण्डिताः समदर्शिनः, पण्डिता पण्डितः
समदर्शी,
समदर्शी. द्विवचने किं भवति?
समदर्शी इति भवति भगिनि.
न न न, द्विवचने द्विवचने, एकवचने समदर्शी इति दीर्घैकारः. इदानीं तत्र द्विवचने
समदर्शी दर्शौ वा?
न न न, योगिनः समदर्शिनौ, पण्डितौ समदर्शिनौ.
महोदय, तत्र अभ्यासे द्विवचनमपि कुर्मः महोदय, तत्र अभ्यासः.
अस्तु, समीचीनमेव.
वाक्यस्य द्विवचनमपि कुर्मः.
अतः तत्र वाक्यस्य द्विवचनरूपं वदतु भगिनि. एकवचने किं, द्विवचने अपि किम् इति एकवारं वदतु भगिनि.
पण्डितः किमस्ति? पण्डितः, पण्डितौ, पण्डिताः.
सत्यम्, इदानीं वाक्यं पूर्णवाक्यं.
पण्डितौ समदर्शी, समदर्शी समदर्शी समदर्शिनौ, पण्डितौ समदर्शिनौ.
पण्डितः समदर्शी अस्ति,
पण्डितौ
समदर्शिनौ, पण्डितौ पण्डितौ समदर्शिनौ स्तः,
पण्डिताः समदर्शिनः.
अत्र क्रियापदं न दत्तं, किन्तु तत्र सन्ति इति.
पण्डितः समदर्शी अस्ति, पण्डितौ समदर्श दर्शनौ
दर्शिनौ दर्शिनौ
दर्शिनौ, पण्डितः समदर्शिनौ स्तः, पण्डिताः समदर्शिनः सन्ति
इति. समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय.
महोदय, स सन्न्यासी च योगी च.
तत्र सन्न्यासी इति प्रातिपदिकं किं?
सन्न्यासिन्.
सन्न्यासिन्. योगी इति?
योगिन्.
द्वयमपि नकारान्तपदम्. अस्तु, इदानीं द्विवचने किम् अपि बहुवचने किम् इति.
द्विवचने तौ सन्न्यासिनौ च योगिनौ च. बहुवचनं ते सन्न्यासिनः च योगिनः च.
यदि क्रियापदम् इच्छामः तत्र सन्ति इति. समीचीनं महोदय, अस्तु अस्तु. तर्हि अग्रे श्रीप्रिया भगिनी.
ते महात्मानः सुदुर्लभाः इति अस्ति एकवचने. सः महात्मा दुर्लभः अस्ति.
सः महात्मा सुदुर्लभः. तत्र दुर्लभः सुदुर्लभः इत्युक्ते तत्र एम्फसिस् इति. तत्र केवलं दुर्लभः इति नास्ति, पश्यतु ते सुदुर्लभः. अतः तत्र विरलतया लभ्यन्ते इति. तत्र सः महात्मा सुदुर्लभः. द्विवचने
तौ महात्मानौ सुदुर्लभौ.
सुदुर्लभौ. इदानीं ते
महात्मानः सुदुर्लभाः.
सुदुर्लभाः, समीचीनम्. अस्तु, शुभदा भगिनी अग्रे.
ते वेदविदः इति बहुवचने अस्ति, तस्य एकवचनं. वेदविदः इति दकारान्तपुल्लिङ्गशब्दः सुहृत्वत् इति अहं वेदविद् इति भवति. अतः सः वेदविद् तौ वेदविदौ ते वेदविदः इति भवति वेदविद् वेदविदौ वेदविदः
यः तत्र ते वेदं जानन्ति इति तत्र वेदविदः ते वेदं जानन्ति वेदविद् शास्त्रविद् इति तत्र शास्त्रं यः जानाति सः शास्त्रविद् अस्तु समीचीनं
जानाति एव अथवा निपुणः एव
तत्र हा सन्दर्भानुसारं भगिनि हा किन्तु तत्र हा तत्र द्वयमपि साधु एव भगिनि अग्रे
अन्यभाक् मां भजति
न न अनन्य अनन्य
भाक् ओ सोरि अनन्यभाक् मां भजति अनन्यभाक् सोरि अनन्यभा जकारान्त् पदमस्ति अनन्यभाज् सृज् सृजवत् अन्यभाक् मां भजति अन्यभाजः अन्यभाजः मां भजन्ति
तत्र भाक् इति एकवचने अस्ति इति अस्ति मां भजति
अतः भजते भजेति भजन्ति
हा समीचीनं भगिनि हा अतः मां भजते मां भजेति मां भजन्ति इदानीं तत्र अनन्यभाक् इति अस्ति जकारान्त समीचीनं वणिक् समीचीनं हा अतः वदतु भगिनि पूर्णवाक्यं वदतु इदानीम् अनन्यभाक्
अनन्यभाक् मां भजते अनन्यभाजौ मां भजेते अनन्य अनन्यभाजः मां भजे भजन्ति भजन्ति बहुवचने ओके
भजते भजेते भजन्ते
भजन्ति
भजन्ते समीचीनं भगिनि अद्य
धन्यवादः
हा समीचीनं भगिनि अस्तु अग्रे
तस्य अर्थः किं महोदय अनन्यभाक् इत्युक्ते
तत्र सम्यक्तया न जानामिति मन्ये भगिनि तत्र अनन्यभाक् स्मरामि तत्र अनन्य
अन्य किं को विना अन्य कोऽपि न भजनं करोति इति
द्रष्टव्यमस्ति भगिनि
अहं
न जानामि दृष्ट्वा यदि कोऽपि जानाति चेत् वदतु हा इदानीं प्रायश ज्ञातवान् किन्तु इदानीं न स्मरामि
भक्तः इत्यस्य किमपि सम्बन्धः अस्ति वा भक्तः
इति मन्ये तत्र भक्तः भक्तः इति हा सत्यं सत्यं किन्तु मनसि किमपि न आगच्छति इदानीम् अस्तु अस्तु अग्रे लक्ष्मी भगिनि
अस्तु महोदय अनन्तरं ज्ञेयाः ते नित्यसन्यासिनः
तत्र प्रातिपदिकं किं नित्यसन्यासिनः इति
नित्यसन्यासिन्
हा नित्यसन्यासिन् इदानीं ज्ञेयाः ते नित्यसन्यासिनः इदानीम् एकवचने द्विवचने किं भवति
ज्ञेयः ज्ञेयः वा
सत्यं
ज्ञेयः ज्ञेयौ ज्ञेयाः ज्ञेयः सः नित्यसन्यासी
द्विवचने
ज्ञेयौ तौ नित्यसन्यासिनौ
नित्यसन्यासिनौ तावदेव हा समीचीनं भगिनि
ज्ञेयाः ते नित्यसन्यासिनः
ज्ञेयाः ते नित्यसन्यासिनः समीचीनं भगिनि हा अस्तु इदानीम् अग्रे गच्छामः अतः तत्र वयं किञ्चित् अभ्यासमपि कृतवन्तः तत्र पुल्लिङ्गशब्दानाम् अस्तु इदानीम् अग्रे गच्छामः तत्र अग्रे वंशीसुधा भगिनी तत्र श्लोक सुभाषितमस्ति पठति वा भगिनि
आं महोदय एतत् सुभाषितं सावधानतया उच्चैः पठत पापान् निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः पापान् निवारयति योजयते हिताय पापान् निवारयति इत्युक्ते पापान् निवारयति सुहृद् मित्रस्य लक्षणं वदति तत्र
तत्र मित्रः तत्र मित्रं किम् अथवा कः इति
आम् महोदय सः पापान् निवारयति इति उक्तवान् सः योजयते हिताय इत्युक्ते
तत्र एकमेकं स्वीकुर्मः तत्र मित्रस्य लक्षणानि दत्तानि अत्र प्रथमम् अस्ति पापान् निवारयति निवारयति इत्युक्ते तत्र
निवारणं
करोति तत्र यः कोऽपि तत्र पापान् पापं कर्तुं गच्छति अथवा तत्र तादृशी परिस्थितिः भवति चेत् निजमित्रम् अत्र अथवा वास्तविकमित्रं
निरोधयति
मा करोतु इति तत्र तस्य निवारणं करोति अतः पापान् निवारयति अपि
हिताय योजयते तत्र हितकार्येण तत्र सः
हितकार्याय अथवा हितकार्येषु तत्र पोषयति हितकार्येषु तत्र उत्साहं ददाति
आम् सः अपि मित्रमपि करोति तत्र योजयति इति अस्ति किल महोदय
सत्यं भगिनि
हितकार्येषु सहयोगं ददाति वा
सहयोगं ददाति प्रोत्साहं ददाति अपि सः अपि तादृशं कार्यम् अपि करोति
आम् सत्यम् अस्तु द्वितीयवाक्यमस्ति गुह्यं निगूहति गुह्यम् इत्युक्ते यत् किं वदामि
तत्र यत् गुप्तरूपेण अस्ति तत्र रहस्यम् इति यदस्ति
आम् तत्र सः
किं करोति तस्य रक्षणं करोति तत्र रहस्यमेव तिष्ठतु इति सः चिन्तयति तस्य प्रकटनं न करोति
अस्तु गुणान् प्रकटीकरोति गुणान् इत्युक्ते
प्रकटीकरोति
उत्तमगुणान्
सद्गुणान् प्रकटीकरोति
दुर्गुणान् नास्ति किल
दुर्गुणान् निगूहयति सद्गुणान् प्रकटीकरोति
आपद्गतं च न जहाति यदि
स्त्रीलिङ्गपदम् अस्ति यदि आपद् आगच्छति
कस्मिन्
आपद्गतम् इत्युक्ते तत्र आपत् आगतम् इति तत्र आपत्काले
अस्तु महोदय परन्तु आपद् कीदृशपदम् अस्ति
स्त्रीलिङ्गपदम् अस्ति भगिनि आपद् दकारान्तस्त्रीलिङ्गपदं तत्र
किं पदमस्ति
यदि भवती इच्छति चेत् तत्र पश्यतु भगिनि तत्र पुटसङ्ख्या अस्ति चतुर्दशपुटे तत्र आपद् सम्पद् परिषद्
आपत् अपि अस्ति न महोदय
आपत् अथवा आपद्
परन्तु स्वरूपमहोदयस्य करपत्रे दकारान्तशब्दः नास्ति महोदय स्त्रीलिङ्गशब्दः
तत्र आपत् इति भगिनी तत्र सरित्वत् एव अस्ति इति मन्ये तत्र केवलं तत्र सरित् अथवा तत्र किं
सरित्वा
सुहृद्वत् इति चिन्तयितुं शक्नुमः सुहृद्वत् एव अस्ति तत्र आपद् आपदौ आपदः सम्पदपि समानम् अतः आपत्काले
परन्तु आपद् स्त्रीलिङ्गं कथं वक्तुं शक्नोति तत्र आपद् गतम् इति उक्तवान्
तत्र आपद् गतम् इत्युक्ते तत्र आपद् पतितम्
अस्तु
आपत्काले आपत्काले इति
कथं वक्तुं शक्यते तत् पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः अस्ति
न न तत्र दृष्ट्वा न वक्तुं शक्नुमः भगिनि सत्यं केवलं तत्र पूर्वमपि वयं कृतवन्तः आपत् सम्पत् परिषद् इति सर्वं
विशेषणं तु नास्ति अत्र ततः अतः मम प्रश्नः
सत्यं भगिनि तत्र केवलं केवलम् अभ्यासेन तावदेव आपद् इति स्त्रीलिङ्गपदम् इति तावदेव
आपद् गतं
आपत् यदा तत्र आपत्काले
आपत्काले च न जहाति ददाति
न न जहाति च न जहाति
अस्तु
तत्र न जहाति इत्युक्ते जहाति इत्युक्ते तत्र तत्र एकः अर्थः अस्तु होमकार्यं होमकार्यम् अस्ति तत्र
धातुतः
तत्र किन्तु अत्र अस्ति तत्र न त्यजति इति अर्थे
अस्तु
आपत्काले न त्यजति मित्र मित्रं न त्यजति
मैत्री न त्यजति इति वक्तुं शक्यते
अथवा स्नेहितः अथवा स्नेहिता न त्यजति
अस्तु आपत् कथं च न जहाति ददाति काले ददाति इति सर्वं ददाति
तत्र काले तत्र यदि आवश्यकता अस्ति तत्र काले साहाय्यं करोति
अस्तु अस्तु
अत्र अद्य एव किमपि आवश्यकं चेत् श्वः ददाति इति न अद्य एव ददाति इति अतः काले साहाय्यं करोति
साहाय्यं करोति सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः एतानि लक्षणानि सन्मित्रस्य लक्षणानि सन्ति सन्तः एतान् वाक्यान्
सत् सत् मित्रः सन्मित्रः सन्मित्रः तस्य लक्षणम् इदम् इति के प्रवदन्ति
सन्तः प्रवदन्ति
सन्तः प्रवदन्ति कोऽपि जानाति वा तत्र सन्तः इति पदस्य अर्थः कः
सत्पुरुषः वा
सत्पुरुषाः
नोबल् पर्सन् नमः
सन्तः
साधु
साधु इति समीचीनं साधवः तत्र सन्तः इति वचनं किं
बहुवचनं
तत्र व्याकरणदृष्ट्या रूपं किं सन् सन्तः इति
सन् वा सन् सन्तौ सन्तः वा
सन् सन्तौ सन्तः अतः तत्र किम् अस्ति सन् इति
शत्रन्त
अस्तु शत्रन्तरूपं पठन् पठति पठन् अस्ति सन् सन्ति सन्तः समीचीनम् अतः तत्र मित्रस्य लक्षणम् इदानीं वयं ज्ञातवन्तः धन्यवादः भगिनि समीचीनम् अस्तु अग्रे अग्रे गच्छामः तर्हि तत्र मधु महोदय अग्रे पठति वा
क्षम्यतां महोदय तत्र अस्मिन् श्लोके कति पदानि सन्ति हलन्तपदानि इति वक्तुं विस्मृतवती महोदय पाप् गुणान् अस्ति गुणि तत्र गुणान् इति नास्ति परन्तु आपदेव अस्ति किल तत्र किमपि नास्ति किल
आपद् एव इति प्रायशः तत्र सन् इति प्रायशः अपि
सन् अपि भवति
अस्तु तावदेव खलु हिताय गुह्यं निगूढीकरोति पापन्
तदेव महोदय
सत्यं भगिनि अस्तु धन्यवादः अस्तु
महोदय एकः प्रश्नः सन् इति शत्रन्तरूपम् अस्ति अत्र वा सन् सन्त इति साधुपुरुषः इत्यर्थे अस्ति अत्र अस्मिन् श्लोके
अर्थः तु तत्र अत्र अस्ति साधुपुरुषाः साधवः पुरुषाः इति अत्र किन्तु तत्र सन् इति रूपमपि अस्ति तत्र तत्र भीमः तत्र गदाहस्तः सन् इति भूत्वा इति अर्थे सन् इति तत्र शत्रन्तरूपम् अस्ति तेन सन्तः इति बहुवचनरूपं भवति किन्तु तत् पदमेव तत्र स्वीकृत्य तत्र सन्तः इति अपि तत्र अन्य अर्थः तत्र पदस्य अर्थद्वय अर्थद्वयम् अस्ति खलु भगिनि तत्रापि तत्रापि अर्थः साधुः साधुपुरुषः एव किन्तु तत्र सन् अथवा सन्तः पदं स्वीकुर्मश्चेत् तत्र एकः अर्थः तत्र अर्थद्वयं पदस्य अर्थाः अनेकाः सन्ति किन्तु तत्र मूल अर्थद्वयम् इति वदामः एकमस्ति योगार्थः अन्यः अस्ति रूढार्थः तत्र सत् सत् इति शत्रन्तरूपं सन् यथा पठत् पठन् अस्ति भवति सत् तस्य शत्रन्त प्रातिपदिकं तस्य प्रथमाविभक्ति एकवचनरूपं सन् इति श्रीप्रिया भगिनी धन्यवादः तत्र बहु समीचीनम् अस्ति तत्र अनन्यभाक् इति तत्र तत्र सर्वेषां कृते प्रेषितवती खलु भगिनि
आम् इति मन्ये महोदय
सर्वे द्रष्टुं शक्नुवन्ति
न महोदय अहं नमस्ते उक्तवती तत्र एव प्रेषितवती
सर्वेषां प्रेषयतु भगिनि धन्यवादः
भगिनि तस्य अर्थं किम् अस्ति महोदय
वितौट् डीवियेशन् इति दत्तमस्ति भगिनि
अनन्यभाक् वा अस्ति गीतायाम् अस्ति परन्तु कस्मिन् श्लोके अस्ति तदपि लिखितवान् वा तत्र
नास्ति अत्र तु केवलम् अर्थः एव
अर्थः एव दत्तवान् वा अस्तु धन्यवादः
समीचीनं
प्राप्तं वा सर्वेषां कृते
इदानीं सर्वे प्राप्तवन्तः इति मन्ये
महोदय अनन्यबाज् वा अनन्यबाक् वा
बाज् इति प्रातिपदिकं भगिनि वणिज्वत् तत्र प्रातिपदिकं किन्तु प्रथमविभक्तं वणि
अनन्यबाक्
अतः तत्र जकारः ककारः भवति प्रथमविभक्तौ
अस्तु
तावत्
धन्यवादः
अस्तु तर्हि इदानीं तत्र कः मधु महोदय अस्तु
सन् इत्यस्य द्वितीय एकवचनं सतं भवति वा सन्तम् इति भवति वा महोदय सन् सन्तौ सन्तः
सन् सन्तौ सन्तः पठन्तम् इति अहं चिन्तयामि सन्तम् इति किन्तु तत्र प्रायशः विशेषरूपं भवेत् द्रष्टव्यम् अस्ति भगिनि किन्तु अहं चिन्तयामि सन्तम् इति प्रायशः दोषायं भवति न जानामि किन्तु
श्रीप्रिया भगिनी तत् डिक्षनरि अस्ति वा HTTPS दट् लिङ्क्
आम् आम् संस्कृत डिक्षनरि अस्ति सर्वत्र आप् चेतः आगच्छति यत्र यत्र पदम् अस्ति ततः
बहु समीचीनम् अस्तु महोदय अग्रे
महोदय अस्तु कोष्टके सहृदलक्षणानि सङ्गृहीतानि सन्ति तानि यथोदाहरणं सहृत् शब्दस्य प्रथमाविभक्तिरूपाणि उपयुज्य वाक्येषु लिखत
मित्रस्य लक्षणं लक्षणं लक्षणानि दृष्टवन्तः इदानीं मित्रमिति पदस्य स्थाने सुहृद् इति स्थापयित्वा वदन्तु इति
सुहृद् पापात् निवारयति सुहृदः पापात् निवारयति
अस्तु तत्र प्रायशः वयं पूर्वम् उक्तवन्तः पापान् निवारयति इति तत्र दोषः आसीत् क्षम्यतां पापात् निवारयति तत्र पञ्चमे अपेक्षितमासीत् सत्यं द्विवचने महोदय
सुहृदौ पापात् निवारयतौ निवारयति निवारयतौ
पठति पठति
पठति
विवचने
पठितः पठतः निवारयतः निवारयतः सुहृदः सुहृदौ निवारयतौ निवारयतः सुहृदः पापात् निवारयति
निवारयन्ति हा समीचीनम् अग्रे सुहृद् हिताय योजयति हिताय हितं कर्तुं हितार्थं
सुहृदौ हिताय योजयतः सुहृदः हिताय योजयन्ति
हिताय योजयन्ति समीचीनं महोदय अस्तु अग्रे वेदा भगिनी
महोदय सुहृदः गुह्यं निगूहति
न न सुहृत् सुहृत् एकवचने सुहृत्
आम् सुहृद्
सुहृत् गुह्यं
निगूहति सुहृत् गुह्यं निगूहति सुहृदौ गुह्यं निगूहतः सुहृदः गुह्यं निगूहन्ति
समीचीनं गुह्यं निगूहन्ति समीचीनं भगिनि उषा भगिनी अग्रे
क्षमितां गुह्यमपि एकवचने द्विवचने एकवचने
कर्तुं शक्नुमः आवश्यकता नास्ति किन्तु केवलं तत्र तत्र वयं जानीमः खलु तत्र कर्तृपदम् अपि क्रियापदं तयोः तत्र सम्बन्धः अस्ति किन्तु कर्मपदस्य वचनं किमपि भवितुम्
अत्र गुह्यम् इत्युक्ते नपुंसकलिङ्ग गुह्यं गुह्ये गुह्यानि वा
इति
गुह्यौ
गुह्यानि तत्र गुह्यम् इति नपुंसकलिङ्गम् इति चिन्तयामि भगिनि अस्तु उषा भगिनि अग्रे
आं महोदय सुहृद् गुणान् प्रकटीकरोति बहुवचनवाक्यानि सुहृदः गुणान् प्रकटीकुर्वन्ति प्रकटीकुर्वन्ति करोति कुरुतः कुर्वन्ति
द्विवचने अतः
सुहृदः सुहृदौ गुणान् प्रकटीकुरुतः
कुरुतः करोति कुरुतः कुर्वन्ति समीचीनं भगिनि अस्तु अग्रे ललिता भगिनी
महोदय क्षमतां निगूहति इत्युक्ते मै कन्सिलो
तत्र रहस्यम् इति तत्र रहस्यं
रहस्यं
तत्र निगूहति इत्युक्ते तत्र तस्य रक्षणं करोति तत् प्रकटं तस्य प्रकटनं न करोति इति सुहृत् सुहृत् तस्य भवतः सुहृद् अस्ति चेत् तत्र भवतः रहस्यं तस्य प्रकटनं न करोति समीचीनं वा महोदय तत्र सुहृदः भवतः गुह्यं निगूहति एकनिमिष भगिनि एकनिमिष हा वदतु
निगूहति अस्ति निगूहति नास्ति इति अहं चिन्ता गुहति निगुहति इति अहं चिन्तयामि गुहति अस्ति अत्र अस्ति वा शब्दः अस्ति वा न जानामि
तत्र निगूहति गुहति तत्र प्रायशः समानम् इति मन्ये भगिनि तत्र निगूहति
अस्ति महोदय अस्ति अस्ति शब्दद्वयमपि अस्ति गूहति अपि अस्ति गुहति अपि अस्ति
द्वयमपि तत्र समानार्थकपर्यायपदं तत्र तस्य प्रकटनं न करोति किन्तु रक्षणं करोति गुप्तस्य रक्षणं करोति इति यद् गुप्तमस्ति गुप्तमेव तिष्ठतु इति तत्र तेषां चिन्तनम् इति अस्तु ललिता भगिनी अग्रे
आपद्गतं न जहाति आपद्गतौ आपदौ गतं न जहातः
न न आपद्गतम् आपद्गतमेव भवतु तत्र सुहृद् इति कर्तृपदम्
सुहृद् आपद्गतं न जहाति सुहृदौ आपद्गतं न जहातः अस्ति
हा इदानीं तत्र जहाति इति
जहाति
जहितः
एकवारं वदतु भगिनि
जहाति जहितः जहति
जहति हा तत्र ददाति दत्तः इति ददाति दत्तः ददति इति तादृशः
ददाति दत्तः ददाति
ददति ददति अत्र जहति
जहितः जहति
जहति हा
ओके जहाति जहितः जहति सो आपद्गत सुहृदः सुहृद् आपद्गतं न जहाति सुहृदौ आपद्गतं न जहितः सुहृदः आपद्गतं न जहति
न जहति
ददाति दत्त ददति दत्तः
समीचीनम् अस्तु तत्र ददाति अग्रे अपि अस्ति अस्तु नरेश् महोदय अग्रे
आं महोदय काले ददाति सुहृद सुहृद् काले ददाति सुहृदौ काले दत्तः सुहृदः काले ददति
काले ददति हा इदानीं तत्र अस्तु इदानीं तत् समाप्तम् इदानीम् अग्रे गच्छामः अस्तु तर्हि तत्र तत्र सुहृदः लक्षणानि दृष्टवन्तः इदानीम् अग्रे गच्छामः तर्हि तत्र लक्ष्मी भगिनी अग्रिमे पुटे श्लोकः अस्ति श्लोकं पठति वा
आं महोदय एतं श्लोकं सावधानतया उच्चैः पठत नागुणि गुणिनं वेति गुणी गुणिषु मत्सरि गुणी च गुणरागी च विरलः सरलो जनः नागुणी अत्र सन्धि अस्ति न अगुणि
न योगः अगुणि
न योगः अगुणि गुणिनं वेति
गुणिनं वेत्ति तदनन्तरं गुणी
गुणी गुणिषु मत्सरि
गुणीषु गुणी गुणिषु मत्सरि
मत्सरि गुणी च गुणरागी च विरलः सरलो जनः
गुणी च गुणरागी च विरलः सरलो सरलो इत्युक्ते सरलः
सरलः जनः
जनः इति अस्तु तत्र हलन्तपदम् अस्ति वा तत्र
गुणी
गुणी अपि
प्रातिपदिकं
गुणी गुणिन् इति प्रातिपदिकम् अगुणी अपि तत्र अगुणिन् इति अपि प्रातिपदिकं
गुणरागी अपि अस्ति
गुणरागिन् इति तदपि अस्ति पदत्रयम् अस्ति अतः तत्र मत्सरी अपि अस्ति समीचीनं भगिनि मत्सरिन् अतः तत्र गुणि इत्युक्ते कः गुणि इत्युक्ते यस्मिन् गुण तत्र साधारणतया सद्गुणः इति चिन्तयामः यस्मिन् गुणं तत्र गुणः अस्ति सः
गुणि
सः गुणी अपि यस्मिन् मत्सरः अस्ति सः
मत्सरि
मत्सरिन् मत्सरी इति प्रथमविभक्तौ सः मत्सरी अपि यस्मिन् गुणस्य कृते रागः अस्ति सः
गुणरागी
सः गुणरागी यस्य अथवा यस्मिन् वा इति अर्थे तत्र इनि इति भवति प्रत्ययः इनि प्रत्ययः अस्ति चेत् अस्य अथवा अस्मिन् वा अत्र मत्सरः यस्य अथवा यस्मिन् वा सः मत्सरी यस्य गुणः अथवा यस्मिन् गुणः सः गुणी मत्सरः तत्र मत्सरः आङ्ग्लभाषायां किम् अस्ति कोऽपि
वा
अपि यस्य अथवा यस्मिन् गुणस्य कृते रागः अस्ति सः गुणरागी तत्र गुणस्य कृते तत्र रागी इत्युक्ते तत्र इच्छा अथवा तत्र आसक्तिः तत्र रागः तत्र गुणरागिन् इति सः अस्तु तत्र विरलः सरलः जनः इति अस्ति अस्तु तत्र तत्र तु प्रथमपदं किमस्ति तत्र नागुणी तत्र श्रीप्रिया भगिनी नागुणी इति तत्र परिच्छेदं तत्र यदि पदस्य छेदनं कुर्मः चेत् किं भवति
न अगुणि इति भवति
हा न योगः अगुणि अगुणि इत्युक्ते कः
न गुणि अगुणि
हा तत्र तत्र नकारः द्विवारम् आगच्छति अगुणि किन्तु नकारः अपि अस्ति तत्र प्रथमतया अगुणि इति स्वीकुर्मः अगुणि इत्युक्ते तत्र साधारणतया तत्र यस्मिन् सद्गुणः नास्ति इति अर्थे अगुणि दुर्गुणः यस्मिन् अस्ति सः अगुणि इति
महोदय तत्र गुणि इति पुल्लिङ्गशब्दः अस्ति परन्तु स्त्रीलिङ्गशब्दः किम् अस्ति गुणि गुणि इति भवति वा
न न गुणिनी इति अस्ति भगिनि
गुणिनी अस्ति वा
इति प्रत्ययस्य तत्र गुणिनी इति भवति साधारण नदीवत् दीर्घ ईकारः
अस्तु अस्तु दीर्घ ईकारः तु पुल्लिङ्गशब्दः
न न गुणिन् इति पुल्लिङ्गे नकारान्तपदम्
अस्तु अस्तु
हलन्तपदं
नदीशब्दवत् भवति वा अस्तु
स्त्रीलिङ्गे नदीशब्दवत् भवति गुणिनी इति
अजन्तशब्दवत्
अजन्तशब्दः अस्ति तत्र
नदीशब्द तु
अजन्तशब्द ईकारः
तदेव अस्तु महोदय
गुणिनी इति स्त्रीलिङ्गे गुणि प्रत्ययस्य गुणिनी इति रूपं स्त्रीलिङ्गे गुणिन् इति पुल्लिङ्गे
पुल्लिङ्गे अस्तु महोदय
अस्तु अतः तत्र किम् अस्ति गुणी क्षम्यतां न योगः अगुणी गुणिनं वेत्ति इत्युक्ते तत्र अगुणी अगुणी अस्ति सः गुणिनं न वेत्ति वेत्ति इत्युक्ते किम्
जानाति
न जानाति कं न जानाति अथवा कान् न जानाति गुणिनं न जानाति गुणिनं द्वितीयविभक्ति कर्मपदं कं न जानाति गुणिनं न जानाति कः न जानाति अगुणि अगुणि न जानाति अतः तत्र अगुणि इति एकमस्ति नकारः यदस्ति प्रथमपदे तत्तु न वेति इति तत्र भवति अतः अगुणि गुणिनं न वेति अपि गुणि गुणिषु मत्सरी तत्र पुनः तत्र गुणि इति अस्ति तत्र इदानीं तत्र साधारण गुणि इति अस्ति इदानीं तत्र प्रथम तत्र गुणि इति द्विवारम् अस्ति इदानीं प्रथमतया अगुणि इति अगुणि इति यस्मिन् तत्र दुर्गुणः दुर्गुणाः सन्ति सः अगुणि सः गुणिनं न वेत्ति इदानीं साधारणगुणि इति यस्मिन् सद्गुणः वा दुर्गुणः वा भवति तत्र साधारणगुणि साधारणपरिस्थितिः का इत्युक्ते गुणिषु मत्सरी परिस्थितिः का तत्र साधारणपरिस्थितिः अन्येषु यदि गुणं पश्यति तथा तत्र किं भवति
मत्सरः
भवति एतत् साधा एषा तु साधारणपरिस्थितिः अतः तत्र साधारणतया गुणि गुणिषु मत्सरी इति किन्तु अग्रिमे तत्र अग्रिमवारं गुणि इति आगच्छति तत्र किं भवति गुणी च गुणरागी इत्युक्ते गुणरागी इत्युक्ते कः?
इच्छा
यस्य तत्र
अनुरागी गुणस्य
हा अपि केवलं तस्मिन् सद्गुणानि सद्गुणाः अस्ति इति न अन्येषु अपि सद्गुणाः सन्ति चेत् तद्दृष्ट्वा यः सन्तुष्टः भवति सः गुणरागी यस्मिन् गुणः अस्ति अपि यस्य यः अन्येषु सद्गुणान् दृष्ट्वा सन्तुष्टः भवति गुणरागी अस्ति यः द्वयमपि अस्ति यः गुणी च गुणरागी च अस्ति तादृशपुरुषः
विरलः
तादृशजनः सरलः विरलः अपि सरलः सन्ति सरलः भवति अपि विरलः भवति अतः तत्र गुणी उपयुज्य गुणी अगुणी गुणिनं गुणिषु अतः तत्र अनेकाः विभक्तयः तत्र सन्ति अस्तु तर्हि
गुणी गुणीषु मत्सरी इत्युक्ते किं
तत्र साधारणस्थितिः भगिनी तत्र साधारणतया किं भवति तत्र अत्र गुणी इत्युक्ते साधारण पुरुषः अथवा जनः अन्येषु गुणान् दृष्ट्वा मत्सरः भवति तस्मिन्
इत्युक्ते
तत् साधारण सा तु साधारणपरिस्थितिः अस्तु अग्रे तत्र केवलं तत्र किं प्रश्नत्रयम् अस्ति तदेकवारं पठामः तत्र अस्तु
त्रीणि भिन्नभिन्न अर्थे अस्ति न महोदय
एकमस्ति गुणि अन्यत् अस्ति अगुणि
गुणि
द्विवारम् आगच्छति सत्यं भगिनि अगुणि गुणि अपि द्वितीयवारं गुणि यत्र आगच्छति गुणरागी अपि अस्ति सः सत्यं अस्तु शुभदा भगिनी प्रथमप्रश्नः
श्लोकस्य आधारेण प्रश्नानाम् उत्तराणि लिखत गुणिनं कः न वेत्ति गुणिनं अगुणि अगुणि गुणिनं न वेत्ति
हा अगुणि गुणिनं न वेत्ति समीचीनं भगिनी हा अस्तु अग्रे श्रीप्रिया भगिनी
गुणी गुणिषु कीदृशः भवति गुणी गुणिषु मत्सरी भवति
हा मत्सरी भवति तत्र चिन्तयतु कोऽपि कविः अस्ति सः कवीनां गोष्ठिः गच्छति तत्र तस्य परिस्थितिः का ईर्ष्याम् अनुभवति अतः तत् साधारणपरिस्थितिः इति तत्र दत्तमस्ति तावदेव तावदेव तत्र
एतत् न करणीयं
सत्यं सत्यं तावदेव तावदेव तत्र साधारणपरिस्थितिः का इति दत्तमस्ति
मत्सरी शब्दः तु भिन्नः अर्थः किल महोदय मत्सरी इत्युक्ते तत्र जलस्य
यस्मिन् मत्सरः अस्ति सत्यं भगिनि अस्तु अग्रे अन्तिम तत्र मधु महोदय तृतीयः
कीदृशः जनः विरलः सरलश्चः भवति
यः जनः यः जनः गुणी च गुणरागी अस्ति सः सरलः विरलः च भवति समीचीनम् अस्तु तत्र अग्रे श्लोकचतुष्टयमस्ति तत्र तत् किं कुर्मः तत्र अग्रिमे वर्गे तत्र तेषां परिशीलनं कुर्मः भवन्तः अपि एकवारं तत्र भगवद्गीतायां दृष्ट्वा किञ्चित् परिशील्य आगच्छन्तु अतः तत् तस्य चर्चा अग्रिमे वर्गे कुर्मः. इदानीं तत्र अग्रिमे पुटे तत्र किम् एतत्तु तत्र कथा नास्ति, किन्तु तद् यद् दत्तमस्ति तत् पठामः. अस्तु, तर्हि तत्र अहं वर्षं निगृह्णामि. अस्तु, तर्हि तत्र अस्तु, वंशीसुतभगिनी आरम्भं करोति वा?
आं महोदय, आं महोदय, अहं वर्षं निगृह्णामि. अस्तु, एतां पाठम् उच्चैः पठत अवगच्छत च. हलन्तस्त्रीलिङ्ग
नपुंसकलिङ्ग
नपुंसकलिङ्गशब्दाः प्रथमा विभक्तिः. ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति. आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति. तदा तदा कृषकाणां मनांसि संहृष्टानि
भवन्ति.
यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. वियति तडितः प्रकाशन्ते. वियति किमस्ति महोदय? मेघाः नितरां
आकाशे इति.
मेघाः नितरां गर्जन्ति. दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैक वेद्यं भवति. तदा मयूराः केकारवं कुर्वन्तः मुदा नृत्यन्ति. सरितः सरांसि च
नवाम्बसा
पूर्णानि भवन्ति. बालाः वृष्टिजले महता उत्साहेन क्रीडारताः भवन्ति. यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां चक्षूंषि प्रकाशितानि भवन्ति. मनांसि च हर्षेण प्रफुल्लानि भवन्ति. कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति. क्रमेण सस्यसम्पद् वर्धते.
तत्र बहु सुन्दररीत्या तत्र संस्कृतभाषायाः सौन्दर्यं तत्र मनसि भवेत् खलु?
आं महोदय.
तत्र जलबिन्दवः भुवि निपतन्ति, भगवतः आशिष इव अपि तत्र अनुभवैकवेद्यम् इति, तत्र सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति इति बहु सुन्दररीत्या दत्तमस्ति. अस्तु, तत्र एकवारं पठामः. अग्रे उषा भगिनी पठति वा अग्रे?
आं महोदय. परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते. सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति. पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते. एवमेव अनावृष्टया अपि आपदः सम्भवति. अनावृष्ट्या अपि आपदः सम्भवन्ति. तदा जलस्य अभावेन सरितः शुष्यन्ति, वृक्षाः विनश्यन्ति, कृषिकर्म असाध्यं भवति. कृषिं विना धान्योत्पत्तिः एव न भवति. प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति. क्रमशः जीवनम् एव दुस्सहं भवति.
समीचीनं भगिनि. अस्तु, अग्रे मधु महोदय.
अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव.
घनविपणानां तत्र अनियन्त्रित
अनियन्त्रितनाशनेन
अनियन्त्रितनाशनेन
पर्यावरणम् असन्तुलितं भवति असन्तुलितं भवेत् यन्त्रगारेभ्यः
निस्सरतां
विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति पर्यावरण
प्रदूषणेन
पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति तेन समग्रमपि जगत् परिवर्तते अतः पर्यावरणसंरक्षणे वयं बद्धाधराः भवेम
अस्तु तत्र प्रथमपरिच्छेदे किम् अस्ति तत्र प्रकृतेः सौन्दर्यं वर्णितम् द्वितीयपरिच्छेदे तत्र कालस्य तत्र परिवर्तनं किं किं भवति इति तत्र अतिवृष्टिः वा अनावृष्टिः वा भवति चेत् तत्र परिणामं किम् इति उक्तं तदनन्तरम् अन्ते तत्र अतिवृष्टेः अनावृष्टेः कारणं मानवः एव इति अतः तत्र पर्यावरणसंरक्षणम् अस्माकं कार्यं तस्य रक्षणं करणीयम् इति अस्तु तर्हि तत्र किञ्चित् पठितुं समयः अस्ति तत्र किञ्चित् पठामः अत्र मूलविषयः कः इत्युक्ते तत्र स्त्रीलिङ्गहलन्तपदानि अपि नपुंसकलिङ्गहलन्तपदानि दत्तानि सन्ति तत्र पुल्लिङ्ग अपि स्त्रीलिङ्गपदानि दृष्टवन्तः पूर्वमेव तत्र वयं जानीमः खलु तत्र आशिषः तत्सर्वं जानीमः विपद् सरित् आपद् किन्तु इदानीं तत्र किं भवति तत्र सरांसि चक्षूंषि मनांसि अपि अन्यत् किं मनांसि इति अस्ति तत्र सरितः जानीमः सरांसि मनांसि चक्षूंषि इति तत्र अपि जलस्रोतांसि जगत् इति तत्सर्वं हलन्तपदम् अतः तेषां परिचयः अस्मिन् पाठे भवति अस्तु तर्हि तत्र किञ्चित् पङ्क्तिशः पश्यामः तत्र लक्ष्मीभगिनी किञ्चित् पठति वा पठित्वा वदति वा तत्र आरम्भतः तत्र किं तत्र मनांसि संहृष्टानि भवन्ति इति तावत्पर्यन्तम्
अस्तु ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति
तत्र प्रथमतया ग्रीष्मकालः
अनन्तरं वर्षाकालः
आगच्छति वर्षाकालः तत्र ग्रीष्म ऋतुः तदनन्तरं
वर्षऋतुः आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति
तत्र आकाशे तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये
विहरन्ति
कर्तृपदं
मेघमालाः
विहरन्ति इतस्ततः इतः गच्छन्ति ततः गच्छन्ति इतस्ततः विहरन्ति एकस्मिन् स्थले न तिष्ठन्ति तत्र विहरन्ति, तत्र गच्छन्ति, कुत्र कुत्र एतत् सर्वं कुर्वन्ति? आकाशे,
आकाशे,
आकाशे विहरन्ति, इतस्ततः गच्छन्ति. किन्तु मेघमालाः, मेघमालाः इत्युक्ते एकमेव मेघं वा अथवा अनेकानि मेघानि वा?
अनेकानि मेघाः,
अतः मेघमालाः इति, मेघमालाः, मेघमालाः सन्ति चेत् तत्र किं भवति? सूर्यं द्रष्टुं शक्नुमः वा?
न, न द्रष्टुं शक्नुमः.
अतः तत्र सूर्यम् आच्छाद्य,
आच्छाद्य,
तत्र आवृत्य, तत्र तस्य आवरणं कृत्वा,
आवरणं कृत्वा,
अतः तत्र आच्छाद्य, सूर्यम् आच्छाद्य मेघमालाः इतस्ततः,
इतस्ततः विहरन्ति,
विहरन्ति.
तदा कृषकाणां, तदा कृषकाणां मनांसि संहृष्टानि भवन्ति.
हा, इदानीं तत्र क्रियापदं किमस्ति? क्रियापदं किमस्ति?
भवन्ति,
भवन्ति इति अस्ति. कर्तृपदं किम्?
कृषकः
न, कृषकाः, किन्तु विभक्तिका तत्र पदं, कृषकाणाम् इति पदस्य विभक्तिका?
ओ, कृषकाणां षष्टिविभक्ति,
षष्टि बहुवचनम्, अतः तत्र कर्तृपदं नास्ति खलु? कर्तृपदं तु प्रथमविभक्तौ अस्ति. अतः तत्र भवन्ति, हा, मनांसि, मनांसि भवन्ति, तत्र भवन्ति इति. किन्तु तत्र मध्ये संमृष्टानि इति अस्ति, संमृष्टानि इति लिङ्गं किं संमृष्टानि इति दृष्ट्वा? संमृष्टानि इति दृष्ट्वा
नपुंसकलिङ्गं,
नपुंसकलिङ्गं बहुवचनं, समीचीनम्. इदानीं तत्र मनांसि
संहृष्टानि
भवन्ति इति दृष्ट्वा वयं जानीमः मनांसि इति पदं कीदृशपदं?
नपुंसकलिङ्गं,
नपुंसकलिङ्गपदं बहुवचनम् इति प्रथमाविभक्ति इति जानीमः. समीचीनं भगिनि. तत्र मनः, मनसि, मनांसि इति तत्र स्वरूपमहोदयस्य करपत्रे दत्तमस्ति. तत्र मनः, मनसि, मनांसि, तत्र प्रायश कुत्र अन्तिमे पुटे अन्तिमपदम् एतदेव अस्ति इति मनः मन्ये. हा, मनः, मनसि,
मनांसि,
मनः, मनसि,
मनांसि,
सकारान्त, मनस्,
सकारान्त, नपुंसकलिङ्गं,
नपुंसकलिङ्गपदं, तस्य प्रथमाविभक्ति बहुवचनरूपं मनांसि. संहृष्टानि, संहृष्टानि इत्युक्ते हर्षितः, तत्र हर्षेण युक्तः, संहृष्टः, संहृष्टानि भवन्ति. तत्र पुल्लिङ्गे संहृष्टः, किन्तु अत्र तु नपुंसकलिङ्गे अस्ति, अतः हृष्टं, संहृष्टम्, अतः मनांसि, तत्र मनः संहृष्टं, मनसि संहृष्टे, मनांसि
संहृष्टानि,
संहृष्टानि. कस्य अथवा केषां मनांसि संहृष्टानि?
कृषकाणां,
कृषकाणां, तेषां मनांसि संहृष्टानि, यतोहि तत्र वर्षकाल, वर्षाकालः अस्ति खलु, अतः ते सर्वे संहृष्टाः सन्ति, अथवा तेषां मनांसि संहृष्टानि भवन्ति. समीचीनं भगिनि. अस्तु, अग्रे शुभदा भगिनि, तत्र वाक्यद्वयं स्वीकरोतु भगिनि. तत्र यदा वृष्टिः इति आरभ्य तत्र मेघाः नितरां गर्जन्ति इति तावत्पर्यन्तं.
यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. अत्र यदा तदा इत्यस्य प्रयोगः
कुर्वन्ति.
वृष्टिः, वृष्टिः भवति, वृष्टिः इति ह्रस्वैकारान्त स्त्रीलिङ्गशब्दः, वृष्टिः भवति, वृष्टिः इति कर्तृपदं, वृष्टिः भवति तदा भगवतः आशिषः. भगवतः इत्युक्ते भगवत् इति शब्दस्य षष्ठीविभक्ति एकवचने भगवतः आशिषः इति, आशिषः इति स्त्रीलिङ्गशब्द इति अहं मन्ये.
सत्यं भगिनि, तत्र आशिष इति आशिषिति एव तत्र स्वरूपोद्देशकरपत्रे द्वितीयपुटे अस्ति आशीः आशिषौ आशिषः
आशीः आशिषौ आशिषः तस्य षकारान्त मूर्धन्यषकारान्त स्त्रीलिङ्गपदमस्ति आशीः आशिषौ आशिषः अत्र तु आशिषः इत्युक्ते प्रथमविभक्ति एकवचने बहुवचने भवति
तत्र तत्र क्रियापदं किम् अस्ति
निपतन्ति इति
हा निपतन्ति निपतन्ति हा अतः तत्र बहुवचने इति किन्तु तत्र एतत् कर्तृपदं नास्ति किन्तु तत्र तद् दृष्ट्वा कर्तृपदं बहुवचने अस्ति इति अतः एतत् प्रायशः अपि बहुवचने अस्ति इति
तस्य जलबिन्दवः भुवि निपतन्ति जलबिन्दवः इति कर्तृपदमस्ति जलबिन्दु इत्यस्य प्रथमाविभक्ति बहुवचनं भवति जलबिन्दवः इति जलबिन्दवः निपतन्ति भुवि इति भूशब्दस्य अहं मन्ये सप्तमी विभक्ति एकवचने भुवि इति भवति अहं न जानामि सम्यक्
रीत्या
परन्तु प्रातिपदिकमहं न जानामि महोदय भू इति अस्ति वा
भू इति धातु तत्र भू इति क्षम्यतां भू इति प्रातिपदिकं भू एव इति मन्ये भगिनि तत्र
तदा भगवतः आशिषः इव जलबिन्दवः जलबिन्दवः तस्य उपमानः अस्ति आशिषः इति भुवि निपतन्ति
तत्र भू इति स्त्रीलिङ्गपदं भू इति तत्र अस्तु अस्तु तत्र आशिषः इव जलबिन्दवः जलबिन्दवः जलबिन्दु जलबिन्दवः उकारान्तपदं भुवि इति स्त्रीलिङ्गपदं भुवि सप्तमी विभक्ति जलबिन्दवः निपतन्ति हा अस्तु अग्रे भगिनि
वियति तडितः प्रकाशन्ते वियति इति वियत् शब्दस्य सप्तमी विभक्ति एकवचने
आकाशः इति अर्थः
आकाशे इति अर्थे वियति परन्तु तत् वियत् इति स्त्रीलिङ्गे अस्ति वा महोदय
वियति इति वियत् प्रायशः स्त्रीलिङ्गे अस्ति इति मन्ये भगिनि एतत् न
जानातु
आकाशः तु पुल्लिङ्गे अस्ति वियत् प्रायशः स्त्रीलिङ्गे वा तडित् इति तु तत्र तडित् किम् अस्ति
तडित् अपि स्त्रीलिङ्गपदमेव
तडित् अपि तडित् इति स्त्रीलिङ्गपदम् अग्रिमे पुटे दत्तमपि अस्ति
प्रकाशन्ते प्रकाशन्ते इति प्रथम पुरुषे बहुवचने अस्ति अतः आत्मनेपदि
तडित् तत्र तडित् तडितौ तडितः अतः तत्र तडितः प्रकाशन्ते तडित् प्रकाशते
नपुंसकलिङ्गं
वियत् वियत् वियति वियन्ति अस्तु भगिनि अस्तु जगत् जगति जगत् सरित् तडित् अस्तु सत्यं
तडितः इति बहुवचने अस्ति अतः प्रकाशन्ते तस्य क्रियापदं भूत्वा आत्मनेपदी प्रथमपुरुषे बहुवचने अस्ति वियति तडितः प्रकाशन्ते इति
तत्र तडितः कुत्र प्रकाशन्ते वियति आकाशे आकाशे प्रकाशन्ते
मेघाः नितरां गर्जन्ति नितराम् इत्युक्ते अतीव अतीव इति अस्ति किमर्थं किं किं किं
वक्तव्यं तत्र शब्दः बहु भवति तत्र तस्मिन् समये तत्र तडितः प्रकाशन्ते तदनन्तरं शब्दः भवति खलु आकाशे अतः मेघाः गर्जन्ति इति निखर्जन्ति इति अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि तत्र प्रायशः तावत्पर्यन्तमेव कर्तुं शक्नुमः. इदानीं तत्र अग्रे अग्रिमे वर्गे तत्र दिक्षु विदिक्षु उत्पन्नं प्रकम्पनं तत् तत्र अनुभवैकवेद्यं बहु सुन्दरपदमस्ति. अग्रिमे वर्गे पश्यामः. अस्तु तर्हि तत्र मधुमहोदय अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः.
धन्यवादः महोदय. सर्वेभ्यो नमः. धन्यवादः.
धन्यवादः.